यावत् सरला भगिनी संस्कृते वार्तालापं करोति तावत् अहं न करोमि।
भगिनि, केन् यु से अ कपल् आफ् यावत् और् वन् यावत् तावत् एण्ड् वन् यथा तथा इफ् यु
यावत् सरला भगिनी संस्कृते वार्तालापं करोति तावत् अहं न करोमि।
सम्यक् भगिनि।
ओके एण्ड् यथा तथा यथा वदति तथा अहं करोमि।
ओके So main thing is keep in mind the ekavachan or bahuvachan when you say, you know, balakaha kridanti, so like that.
Namaste Ajay Mahodaya. Namaste Sarla Bhagini. I am Balakrishna.
Namaste Mahodaya.
Sarvebhyo Namaskara. Atra Usha.
नमस्ते भगिनि। उषा भगिनि, गृहपाठं किञ्चित् वदामि।
शिशुः दुग्धं पीत्वा निद्राति। मयूरः मेघं दृष्ट्वा नटति।
केन् यु से वन् ओके ऐ वाण्टेड् टु लुक् एट् युर् नम्बर् 5 पञ्चमवाक्यं।
जननी पुत्रम् आहूत्य भोजनं ददाति।
तत्र किञ्चित् दोषः अस्ति। तत्र
दोषः अस्ति वा?
चिन्तयतु। आहूत्य वा आहूय?
आहूय जननी पुत्रम् आहूय भोजनं ददाति।
And can you say one of your yavat tavat?
Bhaskarah yavat prasiddhah vaidyah asti, tavat prasiddhah rekha na asti. Ekah api, yavat dhanam राजीवे अस्ति तावत् समीरे न अस्ति।
तत्र अपि किञ्चित् धनं राजीवे अस्ति वा? यु केन् से यावत् बुद्धिः और् शक्तिः और् समथिङ्ग् लैक् दट्।
यावत्
धनम् इस् नाट् टिपिकलि
यावत् शक्तिः राजीवे अस्ति। ऐ थिङ्क् देर् इस् अ स्पेलिङ्ग् मिस्टेक् एनिवे। राजीवे अस्ति तावत् समीरे नास्ति। देट् इस् ड्यू टु टैपिङ्ग्।
या या ओके और् इफ् यु वाण्ट् टु से धनम् ऐ थिङ्क् इट् विल् बि बेटर् इफ् यु से यावत् धनिकः राजीवः अस्ति तावत् समीरः न। यावत् धनिकः
राजीवः अस्ति तावत्
समीरः
नास्ति। धन्यवादः।
उत्तमं भगिनि। केन् यु से वन् आफ् युर् यथा तथा?
यथा अजेयमहोदयः सरलं संस्कृतं वदति तथा अहं न वदामि।
ओके
धन्यवाद. एकः अपि
your next sentence bhagini see yes. When you that jananyah so the next you there you are using chaturthi for devaya
yes.
Okay so for janani what will be the chaturthi you have to use here
okay janani जनन्यै पुत्रः प्रियः तथा देवाय सर्वे जनाः प्रियाः.
उत्तमं. योर् सेण्टेन्सेस् आर् वेरि गुड्.
धन्यवादः
बालकृष्णमहोदय. केन् यु रीड् अ कपल् आफ् युर्
महिला आपणं गत्वा शाकं क्रीतवती. पुत्र नमस्कारं कृत्वा अनुग्रहं गृह्णातु.
अनुग्रहं वाट् आर् यु सेयिङ्ग् महोदय?
Son, you prostrate and get blessing.
And get what?
Blessings.
Blessings.
So, Asharvadam Svikarotu is, Grinnatu is not the right usage there. Asharvadam Svikarotu.
Okay. Dhanyavad.
You're saying putra, right? Putra as Sambodhana. Putra.
Namaskaram.
Can you read it?
Namaskaram Krishwa Anugraham Shri Karotu.
Ashirvadam Shri Karotu. Okay. Yeah. Samyak. And the same thing for, I think, the next one also you used Grihit. So there you can say Svikritavan.
Okay.
Means you accepted, right?
Ajay Mahadeva, this is right. Purohitam Dakshina Dasva.
Dakshinam Dasva.
Dakshinam
Dasva.
Purohitam Dakshinam Dasva.
That Vibhakti is right, no? So, Dvitiya.
You might want to use Chaturthi there. Yeah, we have...
Purohitaya.
Right. Okay. Dakshinam Dattva Prasadam Svikritavan.
Okay. Grihitavan is wrong.
Yeah, grahitavan means hold or something like that. You are accepting the prasadam is what I understood.
Yeah.
So svikritavan is better.
Okay.
No, it is nitpicking at this point because you have to be, you know, using exact. If it was in the second or third class, we would have let it go, but. Now we have to be more and more.
Right.
Don't take it otherwise, Mahodaya.
No. It's not this. We have to correct you.
Can you say Yavat Tavat?
Yeah. Yavat Ganga Brihat Asti, Tavat Kaveri Nasti.
Samyak.
Yavat हिमालयः उन्नता अस्ति तावत् सह्याद्रि नास्ति.
सो वेन् इट् इस् हिमालयः देन् यू केन् से उन्नतः. ओके, बिकास् इट् इस् पुल्लिङ्ग.
यस् रैट् अकारान्त पुल्लिङ्ग.
या
उन्नतः अस्ति तावत् सह्याद्रि नास्ति.
Can you say a couple of your yatha tatha?
Okay, okay. Yatha Narendra Modi Mahodayah Bhashanam Karoti Tatha Kopi Anyah Na Karoti.
Samyak.
Yatha Yeshudasah Gayati Tatha Balasubramanyam Api Gayati.
Samyak Mahodaya, Dhanyavada.
Okay, Dhanyavada.
So keep that pullinga, you know, you have to change the adjective accordingly.
Right. Akaranta pullinga. Okay, Dhanyavada.
Yeah. So if you had said Sahyadri, then Unnata would have been right.
Okay.
यावत् सह्याद्री उन्नता अस्ति तावत् इफ यू हैव समथिंग एल्स शॉर्टर देन दैट बट यू गेट द पॉइंट राइट
ओके राइट आई गॉट इट
ओके धन्यवाद
अकारांत पुल्लिंग सो इट शुड बी उन्नतः ओके
हेमांगी भगिनी
अहं स्नात्वा पूजां करोमि हस्तौ प्रक्षाल्य भोजनं करोतु
कपल् आफ् युर् यावत् करोतु इस् फैन्
Okay.
Means you are requesting somebody else to do, right?
Yes. So I just have a question. With katwa, we can use any lakara, right? Lang lakara or any lakara, bhavishat, rupam, anything, right?
Yeah.
Okay.
It depends on the sentence, right? If you are saying what has happened or what will happen or what you should do. Yeah.
Okay. So I'll read Yavat Tavad now. Bhavan Yavat Prayatnam Karoti Tavat Yasham Prapnoti.
Samyak.
Yavat Shakyate Tavat Chalami.
Shakyate, how did you find that word?
Shakyate, yes, it was, I searched on the web and I also have few pustaks with me. I have that Pravesha pustak. Some pustak I saw this word.
Okay. Samyak bhavan, uttama vakya.
Yeah, dhanyavada. Now I will read Yatha Tatha. यथा हनुमान रामं भजति तथा अन्यः न भजति नो
इट इज एक्चुअली हनुमान देयर विल बी अ दैट चिन्ह बिलो इट्स अ हलंत शब्द हनुमान और यू कैन से आंजनेयः
दैट मे बी अ बेटर ट्राइंग टू राइट आंजनेय बट आई कुडंट राइट सो आई जस्ट यूज आंजनेय हनुमान
below na you have to put that it is a hard stop hanuman
okay hanuman hard no I did not get it what is hard stop
halanta
okay so na is not complete you mean halanta chinna hanuman
it is not hanuman it is hanuman
Oh, okay, got it now.
That chinna is called halanta chinna. That half you put, no? Under.
Yeah, okay, got it now. Yeah, Hanuman, okay. So, is this sentence correct?
Yeah. Sentence otherwise is fine.
okay. Yatha मम माता स्वादिष्टपाकं पचति तथा मम सहोदरी अपि पचति.
पाकं
पचति.
ओके, सम्यक् भगिनि.
धन्यवादः.
धन्यवादः. मञ्जुमहोदय.
महोदय,
किञ्चित् पठतु. त्वा प्रत्यय, किन् यू रीड् अ कपल् आफ् यर्.
अहं पूजां कृत्वा भोजनं करोमि. अहं संस्कृतं ज्ञात्वा श्लोकं पठामि.
सम्यक् महोदय.
अमेरिकादेशे यावत् करोना अस्ति तावत् भारतदेशे नास्ति.
सम्यक् सम्यक् महोदय, उत्तमम्.
यथा विजयप्रकाशः गायति तथा अन्य न गायति.
सम्यक्.
यथा राजकुमारः अभिनयं करोति तथा तस्य पुत्राः न करोति.
पुत्राः किं भवति तत्र? करोति न, पुत्राः कुर्वन्ति.
कुर्वन्ति.
पुत्रः और पुत्रः?
ओके, इफ इट्स पुत्रः देन इट इज करोति, राइट?
करो. या या.
ओके,
सम्यक् महोदय, उत्तमं.
धन्यवादः.
जया भगिनी.
आं महोदय. रीड् त्वा सेण्टेन्सेस्. सः कार्यालयं गत्वा कार्यं करोति. ते फलरसं पीत्वा क्रीडाङ्गणं गच्छन्ति. वयं चित्रं दृष्ट्वा गृहम् आगच्छामः.
सम्यक् भगिनि. यावत् तावत्?
यावत् तावत्.
केन् यू रीड् कपल् आफ् यर् यावत्? हव् यू डन् यावत्? यावत् तावत्.
टेक्सस् नगरं यावत् विशालं तावत् केण्टकी नगरं विशालं नास्ति. मम भगिनी यावत् कार्याणि शीघ्रं करोति अहं तावत् न करोमि.
तत्र शीघ्रं
कार्याणि शीघ्रं न करोमि.
सो मम भगिनी यावत् कार्याणि करोति अहं तावत् न करोमि. शीघ्रं नाट् लैक् हौ मच्.
ओके, यथा तथा. यथा मम भगिनी धावति तथा अहं न धावामि. यथा अध्यक्षः पालयति तथा कार्मिकः न पालयति.
What do you want to say, Bhagini?
Means like the leader. How they lead a group of people. None of the other people can do. Like employees cannot do that.
Oh, okay. Okay.
यथा भवान् पाठयति तथा अहं न पाठयामि.
सम्यक् भगिनि, धन्यवादः.
धन्यवादः.
Vaibhavi Bhagini? Kinchit Patatu Bhagini?
भवान् प्रथमं भोजनं खादित्वा पे पिबति
पेयं पिबतु पिबति प्रथमं सो दट् इस् द अदर् थिङ्ग् दट् यु हव् टु फोकस् आन् द द्वितीया विभक्ति for when you are doing something aham mandiram gachami like that okay so when you are using a verb before that it has to be like a the object form or the dvitiya okay bhojanam karotu the am I don't know if you have written bhojanam or what did you write
I have written bhojan bhojanam
Okay. So similarly, Geetam Shrutva. Can you correct and read the second one?
Yeah. Sa Geetam Shrutva Geetam Gayati.
You get the idea, right? It should be the Dvitiya, that's the Dvitiya Vibhakti or the object form.
Okay. Ekam, गणेशः चलचित्रं दृष्ट्वा गृहम् आगच्छति
उत्तमं भगिनि वेरि गुड् केन् यु रीड् यावत् तावत्
केन् ऐ रीड् दिस् फिफ्त् ऐ एम् नाट् श्योर् इफ् दिस् इस् करेक्ट्
या यु हव् टु मेक् द करेक्षन् लैक् वि सेड्
उषा सज्जित भूत्वा प्रतिभोजनं गच्छति
प्रतिभोजं गच्छति
भोजनं
प्रीति वाट् इस् द वर्ड् यु यूस्
प्रीतिभोजनं
भोजं
ऐ थिङ्क् ऐ हेव् रिटन् Bhoja, then I corrected it to Bhojanam. Bhoja.
Usha Sajjita Bhutva. Yeah, it should, I think it should be Preeti Bhojam Gacchati.
Preeti Bhojam Gacchati.
Like a dinner party or a dinner outside.
Yeah, party. Right? Yeah.
उत्तमं भगिनि वेरि गुड्
यावत् तावत् उषा यावत् पठति गीता तावत् न पठति मीना यावत् शीघ्रं धावति सन्ध्या तावत् शीघ्रं न धावति
Like we said before, that Shigram, it is not comparing speed, I don't think. So you can just say Yavat Dhavati, Tavat Aham, who's that? The other person does Chandra. Not.
Okay.
So Meena Yavat Dhavati, Tavat Meena Na Dhavati.
Okay. मम माता यावत् मम माता यावत् स्वादिष्टपाकं करोति अहं तावत् स्वादिष्टपाकं न करोति तावत् न करोति
करोति वा अहं किं करोमि
या करेक्ट् या
सम्यक् भगिनि जस्ट् इल् इल् कम्
यथा मम सखी सुन्दरं नृत्यति तथा सीता अपि नृत्यति
You have to say mama, okay? And it's not mum, mama.
Mama.
I'm going to be pointing all silly things also from now on to make you perfect.
Yatha mama sasya palan janami tatha usha na janati. Janati.
So again, sasya pala, what will be the word?
Sasya palan.
Palanam.
Palanam.
Okay, palanam janami. Tata usha na janati. Samyak.
Yatha sita deshatan ichhati, tatha aham na ichhami.
There also you have to use the other form.
Deshatanam.
Okay.
Dhanyavad.
Uttamam bhagini. Dhanyavad. Saraswati bhagini, did you read or?
No, I did not.
How did you skip? Okay, let's do your.
Thank you. Ramah vanam gatva rakshasan maritavan.
Samyak bhagini.
Aham gruhakaryam kritva nidram karishyami.
Samyak.
So you want me to read all the others? Anya vakyani api or yavat tavat?
Read one more and then do yavat.
Tvam palam prakshalya anantaram khadha.
Tatra kimartam
wash the fruit apurusha. And then eat after eating, after washing the fruit.
Can you replace tvam with the pratama purusha and reread that?
Okay. Then also it will become, okay. Ramaha palam prakshalya anantaram khadati.
So anantaram is not needed there.
Okay.
Because it is bhavan phalam prakshalya khadatu.
Okay.
Right? I mean, anantaram is implied there because you are saying prakshalya. So khadatu.
And yavat tavat. Apanat yavat phalani santi tavat aham krinami. What I meant to say is, however much fruits are there, I'm going to buy everything.
You're going to buy everything. Okay.
Just for donating, okay. Let's say. Aham yavat bhojanam khadami, tavat bhojanam mama putri na khadami. Khadati. Sorry. Khadati.
Okay. Samyak. Yata tata.
Yata mama arogyam purvam yata asit idanim tata na asti and nasti.
Okay.
Yata haham vadami tata eva mama shukaha vadati.
Samyak. Uttamam bhagini. Dhanyavada.
Dhanyavada.
So Nivedita bhagini astiva.
Namaskara.
Namaskara bhagini. I don't know, did you hear what I said in the beginning? You should not end with the tva.
No, I wasn't. Okay, I missed it. Yes.
Can you read your first sentence?
Okay. बालकः शालाम् आगत्य पाठं पठति.
सम्यक्.
ओके, द सेकेण्ड् वन् इस् रमा फलं खादित्वा दुग्धं पीत्वा.
न पीत्वा न पिबति. So, when you have a pitva there, it means that there is something else coming. Or you can say, Rama phalam khaditva dugdam pitva nidrati.
Okay. Okay.
Yeah. So, after the tva, there should be some other kriya that needs to be, some other task that needs to be done or a verb in that part. Okay.
Okay, so it's like a continuous tense. It's not.
Yeah, so yeah, you're leaving us hanging there. Dugdham pitva kim karoti.
Okay.
Right.
Okay. Got it. Got it.
So read your fourth sentence.
Sudha prataha utthaya yogasanam karoti.
Ah, samyak. See there, utthaya, you are doing something. So your third sentence again you will have to rewrite using. So can you read it with the correction?
Yes, the third one. Okay. Sureshah vishayam smaranti samyak likhanti. Sorry. So the third word would be Sureshah vishayam smaratva samyak likhanti.
Likhati. It is smritva. Vishayam smritva samyak likhati.
Okay.
Likhanti is a bahuvachana. So you're only talking about Sureshah.
Okay.
Likhati.
Okay.
So can you read Yavat Tavat?
Amrafalam Yavat माधुर्य अस्ति तावत् अन्य फलं नास्ति.
सम्यक्. मधुरम् अस्ति. यावत् मधुरम् अस्ति तावत् अन्य फलं नास्ति. सम्यक् भगिनि. वन् मोर् केन् यू रीड् यावत् तावत्.
भगिनी यावत् क्रीडति तावत् अन्य न क्रीडति.
सम्यक्. यथा तथा.
यथा मम माता गायति तथा अन्य न गायति.
सम्यक् सम्यक्.
यथा राजा रविवर्मा चित्रं रचितवान् तथा अहं न शक्नोति.
यथा रामवर्मा चित्रं रचितवान् अहं न
तथा अहं न शक्नोति.
शक्नोति अहं न कर्तुं शक्नोमि. Because aham, so shaknomi.
Okay.
Okay, and the word I said we have not seen. Kartum shaknomi means I cannot do.
Okay.
Which hopefully we'll see soon. Okay. Kartum shaknomi.
I just picked a word from the Kriya Pad Rupani.
No problem. ओके भगिनि, धन्यवादः.
धन्यवादः.
सुन्दरेश महोदय, ऐ थिङ्क् ऐ डिन्ट् गेट् टु यू. केन् यू क्विक्लि रीड् कपल् आफ् युर् त्वा.
नमस्ते महोदय.
नमस्ते.
अहं भोजनं खादित्वा जलं पिबामि.
सम्यक् सम्यक् महोदय.
त्वं पुस्तकं पठित्वा उत्तरं देहि.
So, instead of Tvam, can you use the Pratama Purusha form? Use Bhavan.
Bhavan, Pustakam, Paditva, Uttaram Vadami.
Uttaram Dadatu or something.
Dadat. Oh, Uttaram Dadat. Okay, Mahode.
Means... What are you trying to say?
Read the book and then present the answer.
Uttaram dadatu. So you're like asking or requesting, right?
Yes, yes, yes.
Bhavan pustakam patitva uttaram dadatu.
Dadatu. Okay, Mahodaya.
One more, can you read?
Okay, Mahodaya. रमेशः गत्वा क्रीडनक आनयति. बट् टाय्स्.
क्रीडनकम् आनयति.
क्रीडनकम्. ओके ओके.
शुड् बी क्रीडनकम् फार्म्.
ओके ओके महोदय.
उत्तमं महोदय.
ओके महोदय, धन्यवादः महोदय. यावत्
ओ यावत्
यावत् सुधीर भोजनं करोति तावत् नितेश अभि भोजनं न करोति.
Bhojanam karot. Can you say that again, Mahodaya?
Yavat Sudhir Bhojanam karoti tavat Nitishah api Bhojanam na karoti.
Then you don't need api there. Tavat Nitishah na karoti.
Na karoti. Okay. ओके महोदय. के सतारो यदा चन्द्रः तदा रेजु स्वप्ताने. I just took it from Yuddhakanda last line, Mahodaya. Ramayana.
Mahodaya, you have to write your own sentence. Did
okay,
you
Mahodaya.
Get the meaning of that? Or can you say your own yatha tata? Like
okay,
your,
okay, Mahodaya. I was just, I will tell.
Okay, Mahodaya. Just think about it and write. But preferably, the idea is, you know, try to use your own sentences so you get the idea.
Yes, yes, Mahodaya.
Because a lot of these forms you won't have seen. It's very little advanced. Okay, so...
Okay.
Better
okay,
not go there. Okay, Mahodaya.
Dhanyavad. Okay,
okay, so we'll see something. Agreed. So before we do that, let's look at this table just quickly again. So I said a couple of things like kartum. So it is this form. If you can see the tumun form. Okay. So last time I think I had a sentence like karya dvayam asti. Aham pratamam karyam karomi. Tadanantaram dvitiyam api karomi. Aham chitramandiram gachami. Aham chalana chitram pashyami. So that becomes aham chitramandiram gatva chalana chitram pashyami. Okay, the other way of saying it is aham chalana chitram drishtum chitramandiram gachami. Aham chalana chitram drishtum chitramandiram gachami. So here you can see that. So that is how that form is used. Okay. And for somebody I said kartum shaknomi or kartum na shaknomi. That is also this tumun form. So let's just read this quickly. Just read the latlakara and the last two, the twa and the tumun. This is called the tumun. Okay, so gachati, gatva, gantum. Slowly, if we can read, just read, Anita Bhagini, we'll start with you. If you can read three lines slowly, starting with patati.
Patati, patitva, patitu. Patati, patitva, patitum. Kridati, kriditva, kriditum.
Samyak. So we'll come back to this form, but since we just briefly saw it, I thought we'll just introduce this. So if you don't understand it, it's okay. Just realize that there is a form like this. Okay. Saraswati Bhagini, can you read the next three lines?
Vadati, vadati, uktva, vaktum. Then pibati, pitva, patum. Likati, likitva, lekitum.
Samyak. So as you read, just why I'm saying read slowly is just note how the forms change a little bit. Okay. Uktva, vaktum. It's a little different. Vadati, uktva, vaktum. All of them are a little different. So, but this word you will really remember because you will be using it a lot. Okay. Dhanyavad Bhagini. Balakrishna Mahodaya, can you read the next three lines? Balakrishna Mahodaya Astiva? Patatu Mahodaya.
Next three lines.
I think
Nayati, Nayati, Nitva, Netum. Nayati, Nitva, Netum. Pashyati, Drishtva, Drishtum. Prichati, Prishtva, Prashtum. Prashtum.
Prashtum. Samyak Mahodaya. Dhanyavadah. Nivedita Bhagini, can you read the next three lines?
Bhavati Bhutva Bhavitum. Milati
Militva Melitum. Tyajati Tyaktava Tyaktum.
Samyak. Tyajati means to discard. Dhanyavada Bhagini. Usha Bhagini, can you do the next three?
Amahode. Kadati Kaditva Kaditum. Janati Nyatva Nyatum. Karoti Kritva Kartum.
See, Kartum Shaknomi. It is possible for me to do. Dhanyavada Bhagini. Manju Mahodaya, can you do the next three lines?
Okay. Srunoti, Srutva, Srotum. Dadati, Dattva, Datum. Preshayati, Preshayitva, Preshayitum.
Samyak Mahodaya. Sundaresha Mahodaya.
Prakshalayati, Prakshalaya. Prakshalya, Prakshalya, Prakshalya tum,
Prakshalyatum,
Layitum, Prakshalayitum, Uttishtati, Uttaya, Uttaya Uttatum. Sorry, Mother. Uttatum. Upavishati.
Upavishya and Upaveshtum.
Upavishya, Upaveshtum. Oh, Dhanyavad. Dhanyavad.
Jaya Bhagini.
Amahode. Thapayati. Sthapayati, sthapayitva, sthapayitum. Smarati, smrutva, smattum. Agachati, agatya, agantum.
Himangi Bhagini?
Asti Bhutva Bhavitum Suchayati Suchayitva Suchayitum Ichati Ishtva Eshtum.
Samyam. Vaibhavi Bhagini?
Svikaroti, Svikrutya, Svikartum. Grunati, Gruhitva, Grahitum. रोदिति रुदित्वा रोदितुं
शक्नोति. सी भगिनी, इट इज ग्रहीत्वा एंड ग्रहीतुं. ओके, इट इज द दीर्घ देयर.
ग्रहीतुं,
कीप इट.
शक्नोति शक्त्वा शक्तुं.
सम्यक्. Anybody I missed? Okay, Anita Bhagini, quickly do the next.
Anayati, anayatu, aniya, anetum. Krinati, kritva, kretum.
क्रीणाति क्रीणाति क्रीत्वा क्रेतुं
क्रेतुं. निन्दति निन्दित्वा निन्दितुम्. आह्वयति आहूय आह्वातुम्.
सो दिस् इस् जस्ट् अ इन्ट्रोडक्षन्. सो नौ वी आर् अ लिटल् बिट् एक्स्पोस् टु द the tumun form, so we'll be seeing it in a little more detail as we go forward. Okay, so prashna asti va? Otherwise we'll move forward.
अधुना किञ्चित् रुचिवाचकाः शब्दाः पश्यामः. विल् सी सम् आफ् दीस् रैट्. द ऐडिया इस् टु गेट् सम् वोकेबुलरि. सो विल् लुक् एट् दिस्. दीस् आर् यूजुवलि यू हेव् सीन् सम् आफ् दीस्. सो नथिङ्ग् न्यू, बट् हौ टु यूस् इट् इन् द इन् अ सेण्टेन्स्. सो साल्ट् इस् लवणम्. ओके, लवणम्. सो लवणस्य रुचिः लवणः. लवणस्य रुचिः लवणः. हौ इस् द टेस्ट्? सो इट्स् काल्ड् वेन् यू यूस् इट् यु हेव् टु यूस् इट् अस् लवणः. ओके, सो जम्बीरम्. ओके, जम्बीरं जम्बीरस्य रुचिः आम्लः. ओके, जम्बीरस्य रुचिः आम्ल. इस् जम्बीर इस् अ लेमन्. निम्बु आल्सो यू यूस् यूज्वलि. जम्बीर इस् कामन्लि यूस्ड् इन् संस्कृतम्. जम्बीरस्य रुचिः आम्लः. इट्स् सावर्. ओके, चाकलेहः. ओके, चाकलेहः. चाकलेहस्य रुचिः मधुरः. ओके, चाकलेहस्य रुचिः मधुरः. इट्स् अ स्वीट्. चाकलेट् इस् स्वीट्. सो मधुरः. मरीचिका. ओके, मरीचिका इस् अ पेपर्. मरीचिकायाः रुचिः कटुः. मरीचिकायाः रुचिः कटुः. सो इट्स् अ हाट्. ओके, स्पैसि. ओके, इट्स् अ चिलि. सो मरीचिका, सिन्स् इट्स् आकारान्त मरीचिकायाः. ओके, पेप्पर्स् टेस्ट् इस् हाट्. कारवेल्लम्. कारवेल्लम् इस् लैक् इन् हिन्दी यू मैट् हव् सीन् नो करेला. ओके, करेला. It's bitter gourd. Karavellasya ruchihi tiktaha. Okay, karavellasya ruchihi tiktaha. So this is bitter, tikta. Usually like some languages, right, tika, we get confused, so we have to keep it in mind. Tikta is bitter. Tika, like in Hindi you use it for hot, but Pitta is bitter. Okay. Amalakam. Amalakam is a gooseberry. Okay. Amalakasya ruchihi kashayaha. Okay. Amalakasya ruchihi kashayaha. Kashayaha is like, yeah, astringent, like, yeah, like, you have, like, acidic, astringent, that kind of a taste, okay? Chaguru, in Kannada, they say Waguru Chaguru something, I don't know in other language, but, so it's like whatever the gooseberry it is, that's a kashaya. So, all the pullinga shabda. So, these are all the ruchivachakaha shabda. So we can fill in the astu kinchit abhyasam kurma etani vakyani patatu ashuddhani vakyani shuddhani karo. Okay, so look at this and read, and if it is not correct, just clean it up. Gudasya ruchihi katuhu. Okay, gudasya ruchihi katu. Guda means jaggery. Okay, so jaggery, is it katuva? Gudasya ruchi. So gudasya ruchihi madhuraha. Right, gudasya ruchihi madhura. So you have to fill here. Na udasya ruchihi madhuraha. Okay? So, same way. Marichikayaha ruchihi madhuraha. Va? Na. Marichikayaha ruchihi kimasti. You have to come here. Marichikayaha ruchihi katuhu. Right? Marichikayaha ruchihi katuhu. Amrapalasya ruchihi tiktaha. Va? Amrapalasya ruchihi tiktava. Na. Amrapalasya ruchi
madura
madura madura avalehasya ruchihi madura. Avaleha means pickle. Okay, avalehasya ruchihi katam asti? Avalehasya ruchi katuhu praya katuhu or amla api, right? Any, like, depending on the pickle. So you can use any either of that. Tintrinyaha ruchihi katuhu. Tintrinyaha, this is tamarind. Yeah. Tintrinyaha. Tintrinyaha ruchihi
katamasti.
Amlamasti. Hello. So tintrinyaha ruchihi amlamasti. So, yeah, this is very simple, but try to use it in sentences. So, you have all these words there. So, nothing much here. So, I think we can move forward. Please read this and fill these.
We can read the...
Yeah, this we can do also. Okay, we can...
Maybe two of them can...
Putraha, Balkrishna Mahodaya, Putra Bhavan Patatu, Mata Saraswati Bhagini Patatu.
Aramam Patatu. Amba, Kim Adya... क्वथितं बहु कटु अस्ति
तर्हि क्वथितं मा स्वीकरोतु तक्रं परिवेशयामि तक्रं इस् बटर् मिल्क् तक्रं परिवेशयामि
तक्रं बहु आम्लम् अस्ति अम्ब
भवान् तु केवलं मधुरम् इच्छति एतत् मोदकं खादतु बहु मधुरम् अस्ति
सत्यम् अम्ब एतत् मधुरम् अस्ति
क कारवेलस्य व्यजनं व्यञ्जनम् अस्ति, किञ्चित् परिवेषयामि वा?
मास्तु अम्बा, कारवेल्लं तिक्तं भवति, अहं तिक्तं न इच्छामि, किञ्चित् लवणं परिवेषयतु।
स्वीकरोतु। आमलकस्य अवलेहं किञ्चित् परिवेषयामि वा?
अस्तु, परिवेषयतु अम्बा। आमलकस्य रुचिः कषायः अस्ति।
तर्हि जम्बीरस्य अवलेहं स्वीकरोतु।
स तु आम्लः अस्ति अम्बा।
भवान् तु मधुरम् एकमेव इच्छति, परन्तु शरीरस्य वर्धनार्थं सर्वविधाः रुचयः अपि आवश्यकाः एव। आवश्यकाः एव।
या फस्ट् टैम् प्रथमवारं खलु चिन्ता मास्तु। उत्तमं महोदय, महोदय अवगतं वा सम्भाषणं?
आम्।
उषा भगिनी किञ्चित् अनुवादं करोति वा, किञ्चित् प्रथमवाक्यद्वयम्?
अम्ब, किम् अद्य क्वथितं बहु कटु अस्ति? ऐ डोण्ट् गेट् वाट् क्वथितः इस्.
क्वथितम् इत्युक्ते साम्बार् सारं किञ्चित्.
ओके ओके मदर्, वै इस् साम्बार् हाट् टुडे? तर्हि क्वथितं मा स्वीकरोतु, तक्रं परिवेषयामि। बै एनि चान्स् तक्रं दि बटर् मिल्क् आर्?
तर्हि देन् तक्रं इस् बटर् मिल्क्।
देन् डू नाट् टेक् साम्बार्, do not take sambar, I will serve you buttermilk.
Himangi bagini agrima dvayam karoti.
Takram bahu amlam asti amba, buttermilk is very sour, mother. भवान् तु केवलं मधुरम् इच्छति, यु ओन्लि डिज़ायर् स्वीट् डेसर्ट्, एतत् मोदकं खादतु, ईट् दिस् मोदक, बहु मधुरम् अस्ति, दिस् इस् वेरि स्वीट्।
उत्तमं भगिनि,
धन्यवादः।
अनिता भगिनी नेक्स्ट्।
सत्यम् अम्ब, एतत् मधुरम् अस्ति, दट्स् ट्रू मदर्, दिस् इस् वेरि स्वीट्। कारवेलस्य व्यञ्जनम् अस्ति, किञ्चित् परिवेषयामि वा? बिटर् गार्ड् सम् पल्या कैण्ड् आफ़् अ थिङ्ग् इस् देर्, कन् ऐ सर्व् यू दट्? सम् वेजिटेबल् मिक्स् इस् देर्, केन् ऐ सर्व् यू दि बिटर् गार्ड् वेजिटेबल्?
उत्तमं भगिनि। मञ्जु महोदय अग्रिमद्वयं करोति।
सरला भगिनी, ऐ हाव् क्वश्चन्।
आम्।
व्यञ्जनं मीन्स् एक्साक्ट्लि वाट्?
व्यञ्जनं मीन्स् लैक् सैड्स् फार् अ मील् वित् आल् द लैक् या सैड् डिश्, करि यु केन् से लैक् करि आर् समथिङ्ग् लैक् दट्।
पठतु महोदय.
Which line, madam?
Mastu.
Okay. Mastu. Mastu amba. Karavelam tikam bhavati.
Karavel.
Okay. Bitter gourd is bitter. Aham tikam na ichami. I don't like bitter.
So it's hard to read, but it's the
tikam.
Half.
Okay. Tikam. Tiktam. Okay. I don't like bitter. Kinchit lavanam pariveshayatu. I like a little bit lavanam.
Salt. Lavanam is salt.
Okay. Mata. Svikarotu. Take it. Amlakasya avaleham kinchit pariveshayami va. Will you take a little bit?
Amlakasya. Okay, amlakasya. Amlaka is lemon, lime.
Yeah. Will you take a little bit?
Amlaka is a little bit, I'm sorry. Amlak.
Okay, yeah. Putra, astu, pariveshayatu. Amba, amlakasya ruchihi kashayaha asti. So, its taste is like a sour.
Yeah, something, yeah. Kashaya, it's a mixed, yeah, okay. Uttama Mohdaya, dhanyavada. Vaibhavi Bhagini, Agrima.
Tarhi Jambirasya Avleham Svikarotu. You still take lemon.
Tari is then, okay, then take lemon, pickle, right? Avaleham is pickle.
Okay. Sa tu amlaha asti amba. So, do you have, amla is like gooseberry?
No, Sahatu means tu means he's stressing. That also is sour. Amla is sour, right? So he's saying that also is sour.
Okay. Bhavan tu madhuram ekameva ichyati, parantu sharirasya vardhanartham sarva vidhaha ruchayaha api avashikyaha eva. So you only want sweet, but for the body, you know, you need all kinds of food which have all the tastes.
Parantu sharirasya vardhanartham, right? For the body's growth, vardhanartham. Okay, sarva vidaha ruchaya, all kinds of tastes are also
needed.
Avashikaha eva means also. Okay. So this. Kvatitam katam asti. Jaya Bhagini. Kvatitam katam asti.
Kvatitam katu asti.
कटुः अस्ति. उत्तमम्. तक्रं कथम् अस्ति निवेदिता भगिनी? तक्रम् इस् बटर् मिल्क्. तक्रं कथम् अस्ति?
आम्लम् अस्ति
आम्ल किं तिक्तं भवति किं तिक्तं भवति वाट् बिकम्स् बिटर् उषा भगिनी
कारवेलं तिक्तं भवति
उत्तमम् एनि क्वशन् सुन्दरेश महोदय नेक्स्ट् वन् यु केन् डु आमलकस्य रुचिः का अस्ति वा सुन्दरेश महोदय
आम् आं भगिनि आमलकस्य रुचिः लवणं नाट् लवणं
आमलकस्य का
आमलकस्य रुचिः कषायः
कषायः आमलकस्य रुचिः कषायः इट् टेक्स् अ वैल् महोदय लवणः यूज्वलि वि नो लवणः इन् आल् लाङ्ग्वेजेस् काल्ड् आम्लः आम्लः इस् सार् मधुरं वि ऐ थिङ्क् इट्स् प्रेटि ईसि मधुरम् इस् स्वीट् कटुः इस् हाट् तिक्तः इस् बिटर् kashayah is like astringent like whatever how the gooseberry tastes okay so tintrinyah ruchih okay I think I okay bhavan kim ichhati bhavan kim ichhati manju mahodaya
aham maduram ichhami
गुडस्य रुचिः का गुडस्य रुचिः का बालकृष्णमहोदय
गुडस्य रुचिः मधुरः
हा उत्तमम् उत्तमं सो ऐ थिङ्क् वे वेरि क्लियर् यु हव् टु यूस् इट् टु गेट् द वर्ड्स् व्हेनेवर् यु वाण्ट् इट् सो okay one more we'll introduce hopefully it's not too much it's very easy ma okay ma is like a past continuous thing okay so we'll just see whether you can understand the conversation sundareshah bandhu graham gatva agatavan okay this hopefully saralamasti sundareshah bandhu graham gatva agatavan gatva agatavan so he went and came back agatavan is came back agatavan so tatra kaha kaha kim karoti sma iti saha mataram vadati okay tatra kaha kaha right kaha means who right tatra kaha kaha kim means what kaha kaha kim karoti sma what they were doing so he is explain he is telling his mother what all of them were doing who was doing what that's what the conversation is about okay so matamah dhyanam karoti sma matamah dhyanam karoti sma matamah is grandfather okay is mother's father grandfather was dhyanam karoti sma that's why when it is the past continuous tense you are using that sma in the end karoti sma okay so matulani is his aunt okay so this is probably this is in order so she is cooking so मातुलानि हिमाङ्गी भगिनी
मातुलानि पाकं करोति स्म
उत्तमं भगिनि पाकं करोति स्म मातुलः मातुलः जया भगिनी मातुलः किं करोति स्म थर्ड् वन्
मातुलः पूजां करोति स्म
रमा मे बी ए कज़िन् ओर् सम्बडि ओके रमा किं करोति स्म सरस्वती भगिनी
रमा उत्तिष्ठति स्म
निद्राति स्म
He's still sleeping or getting up, I don't know.
yeah, we can assume she's sleeping.
Okay. Rama Nidrati Sma.
Okay. Sudha, kim karoti sma? Usha Bhagini, that next picture. Sudha, kim karoti sma?
Sudha, patam patati sma.
पुस्तकं पठति स्म पाठं रमेश सो नेक्स्ट् पिक्चर् रमेशः किं करोति स्म व्यायामं करोति स्म लीला ओके लीला किं करोति स्म निवेदिता भगिनी
प्रक्षालनं करोति स्म
प्रक्षालनम् आल्सो एनिथिङ्ग् लैक् क्लीनिङ्ग् ओर् शी इस् डूइङ्ग् समथिङ्ग् मातामही मातामही मीन्स् हिस् ग्राण्ड् मा ओके ग्राण्ड् मा वाट् मातामही किं करोति स्म
मातामही आलोलिका करोति
What is it?
I just searched Lullaby.
Lullaby. Vadati Sma, you can say, right? She's saying. आकारान्त स्त्रीलिङ्ग एण्ड् इट्स् द्वितीया विभक्ति आलोलिका वदति स्म यु केन् टेक् युवर् बट् द ऐडिया इस्
मातामही शिशुं लालयति स्म
सम्यक् सो द की इस् दट् फार् स्म यु यूस् द लट् लकार फार्म् इवन् दो इट् इस् शोयिङ्ग् द पास्ट् कण्टिन्यूस् ओके सो इन्स्टेड् आफ् लैक् वेन् यु लुक् एट् ध्यानं करोति स्म वेन् यु से पास्ट् टेन्स् यु वुड् से वाट् ध्यानं कृतवान् right so since he was doing it is karoti sma yada aham tatra gatavan tada saha patati sma So now we can start using like that. When I went there, he was doing something, you know, past continuous. So any questions on this? It's fairly straightforward. Use the
Leela Samarjanena Samarjani Samarjanya Prakshalanam Karoti Prakshalayati Sma.
Marjanam Karoti. Yeah. Keep it simple, Bhagini. Marjanam Karoti Sma.
Marjanam Karoti.
Yeah, Sammarjani, Sammarjanya.
Sammarjanya.
If you want to use the three.
Sammarjanya.
Marjanam Karoti. Yeah, we'll use simple forms just so we get it. See, so once we get the idea, then you can use as complicated as you want. So that's what we are trying to do.
अन्ते एकं सुभाषितं पश्यामः. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः. स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च. ओके, सहेतुः सर्वविद्यानां धर्मस्य च धनस्य च. होपफुली यू गॉट इट. सो एव्री विद एव्री ड्रॉप द ग्रेजुअली द पॉट फिल्स. द सेम इट इज द सेम रीजन द सेम वे ऑल द Vidya, all the education, whatever you accumulate, and dharma also, and money also, all is same way, you accumulate drop by drop. That's the Subhashita. So if you do all these exercises, so that just fill in all this, so you will get used to it. If you use your own sentences also, it's even better. But just fill in whatever. I will send you the section numbers. Just go and fill. Because we are not doing it sometimes in order. So just fill them. It's coming on to time. Time flies quickly. So, okay. So hopefully next week we'll cover. If you do Punasparanam homework, you get revised. So that's a good idea. So. We thought we'll do homework also, so you understand how to write. And everybody, since we are looking at everybody's sentences, everybody else will get to know a lot of words, and so that's not a problem. That's a good idea. So anyway, so Prarthana Muktva Samapayamaha. सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित्
शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः भगिनी.
धन्यवादः.
धन्यवादः.